एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। निर्वाचन आयोगेन गगन कुमार थापा विदस्य नेतृत्वस्य नेपाली कांग्रेस दलाय आधिकारिकता प्रदत्तास्ति। आयोगस्य ह्य उपविष्टेन उपवेशेन विशेष महाधिवेशनम् विधिसम्मतम् विधानसम्मतम् चास्तीति ज्ञापयित्वा विशेष महाधिवेशनात् प्रचितानाम् पदाधिकारिणाम् विवरणम् अद्यावधिकीकर्तुम् निर्णीतमिति आयोगेन संसूचितम् वर्तते। सम्प्रत्येव सम्पन्न महाधिवेशनात् निर्वाचितः नेपाली कांग्रेस दलस्य उपसभापतिः विश्वप्रकाश शर्मा विधेः प्रक्रियायाश्च अनुसारेण निर्वाचन आयोगेन आत्मनाम पक्षे निर्णयः विहितोऽस्तीति टिप्पणीं कृतवान् वर्तते। आयोगस्य निर्णय प्रदानानन्तरं कांग्रेस दलस्य निवर्तमान कार्यवाहक सभापतिना पूर्णबहादुर खड्का विधेन आयोगस्य निर्णयः आत्मनाम कृते मान्यो न भवतीति भाषमाणः न्यायस्य कृते न्यायालयं गमिष्यते इति प्रतिक्रिया प्रदत्तास्ति। प्रतिशतं चत्वारिंशता महाधिवेशन प्रतिनिधिभिः महाधिवेशनाय याचना कर्तुं शक्यते। याचनायाः अनुसारेण महाधिवेशनम् अनिवार्येण आयोजनीयं भवति। विधानतः महाधिवेशनस्य प्रतिनिधय एव सर्वोच्च निकायोऽस्ति। विशेष महाधिवेशनम् याचितम् आसीत् इति च विषयेषु कस्यापि विमतिः न दृष्टेति आधारेण थापाविधस्य नेतृत्वस्य नेपाली कांग्रेस दलाय आधिकारिकता आयोगेन प्रदत्तास्तीति ज्ञापितं वर्तते। सर्वकारेण सहकारी संस्थासु विद्यमानाया अव्यवस्थायाः अनुसन्धानाय अनुगमनाय च उच्च न्यायालयस्य पूर्व न्यायाधीशस्य नेतृत्वे अनुसन्धानायोगः संघटितो वर्तते। मन्त्रिपरिषदः उपवेशेन विनोद प्रसाद शर्मणः संयोजकत्वे सहकारी संस्थासु विद्यमानायाः अव्यवस्थायाः अनुसन्धानाय एतद् विक्रमवर्षीयम् अव्यवस्था सम्बद्धानुसन्धानायोगम् संघटयितुम् निर्णीतम् अस्ति। सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च जगदीश खरेलः सर्वकारेण प्राविधिक शिक्षा व्यावसायिक प्रशिक्षण परिषदः उपाध्यक्ष पदे मोहम्मद सफीउल्लाह इत्यमम् नियोक्तुम् च निर्णीतमस्तीति असूचयत्। मन्त्रिपरिषद उपवेशेन नेपाले मानव व्याघ्रान्तर सम्बन्ध व्यवस्थापन परियोजनायाः कृते विश्व वातावरण सौविध्याद् विश्व वन्यजन्तु कोषस्य माध्यमेन प्राप्यमाणाम् 37,00,000 21,000 380,900 च अमेरिका देशीय डलर मुद्राणाम् अनुदान सहायताम् स्वीकर्तुम् च निर्णीतमस्तीति मन्त्री खरेलः असूचयत्। प्रधानमन्त्रिणा सुशीला कार्किणा सह नेपाल तामाङ घेदुङ समुदायस्य प्रतिनिधिमण्डलेन मेलवार्ता विहितास्ति। ह्य विहिते मेलने तामाङ समुदायस्य जनसंख्यायाः संस्कृतेः आर्थिक सामाजिक अवस्थायाश्च विषयेषु विमृष्टमस्तीति प्रधानमन्त्रिणः संचार परामर्शदाता रामबहादुर रावलः असूचयत्। घेदुङ समुदायेन परश्व माघस्य पञ्चमे दिवसे सोनाम लोछार पर्वणः अवसरे काष्ठमण्डपे तामाङ सांस्कृतिक महोत्सव शुभकामनायाः आदान प्रदान कार्यक्रमश्च आयोज्यमानो वर्तते। तदवसरे प्रधानमन्त्री कार्की देशे विद्यमानायाः वर्तमान समस्यायाः लोकतान्त्रिक रूपेण समाधानाय निर्वाचनमेव निर्विकल्पः अस्तित्यतः समाजस्य सर्वेभ्य स्तरेभ्य सहयोगस्य अपेक्षाम् विहितवती। ह्य अष्टाविंश राष्ट्रिय भूकम्प सुरक्षा दिवस भूकम्प सम्बद्धान विविधान सञ्चेतनामूलकान् कार्यक्रमान् आयोज्य समायोजितो वर्तते। नवत्युत्तरैकोनविंशतिशततम विक्रमवर्षस्य माघमासस्य द्वितीय दिवसे दूरापन्नस्य भूकम्पनस्य स्मरणे पञ्चपञ्चाशदुत्तरद्विसहस्रतम विक्रमवर्षात् प्रतिवर्षम् भूकम्प सुरक्षा दिवस समायोज्यमानो वर्तते। य भूकम्प दिवस मूल समारोह समित्या काष्ठमण्डपस्य खुल्ला मञ्च स्थाने आयोजितम् कार्यक्रमम् सम्बोधयन् गृहमन्त्री ओम प्रकाश अरियालः भूकम्प प्रवृत्तिनाम् विपदाम् कारणेन सम्भाविताया धनजनयो क्षतेः न्यूनीकरणाय एकीभूय प्रवर्तितुम् सर्वान् आहूतवान्। गृहमन्त्री अरियालः विपद संकट न्यूनीकरण सम्बद्धानी कार्याणि संस्थागत रूपेण सबलानी परिणाममुखिनी च विधातुं सर्वकारस्य पक्षतः योजनाबद्धः प्रयत्नः नैरन्तर्येण विधीयन्ते इति प्रतिबद्धतां व्यक्तवान्। कार्यक्रमे भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री कुमार इङनाम काष्ठमण्डप महानगरपालिकायाः उपप्रमुखा सुनिता डंगोलश्च विचारं प्राकटयताम्। कार्यवाहक प्रमुख निर्वाचन आयुक्त रामप्रसाद भण्डारी राजनीतिक दलेभ्य नैर्वाचनिक प्रतिस्पर्धायां सहयोगो भवतु इति उद्देश्येनैव आचार संहिता क्रियान्वेष्यते इति स्पष्टीकरोति। निर्वाचन आयोगेन एतद् विक्रमवर्षीयाया निर्वाचनाचार संहिताया क्रियान्वयनस्य सन्दर्भे ह्यः काष्ठमण्डपे आयोजितं राजनीतिक दलैः विमर्शन कार्यक्रमं सम्बोधयन् कार्यवाहक प्रमुख निर्वाचन आयुक्तः भण्डारी प्रतिस्पर्धाया कृते सहयोग प्रापणस्य उद्देश्येन एव मासेभ्य पूर्वं प्रारूपं निर्माय राजनीतिक दलेभ्य सांविधानिक निकायेभ्य सम्बद्ध सर्वकारीय कार्यालयेभ्यश्च परामर्शनं याचित्वा तदनुसारेणैव आचार संहितायाः क्रियान्वयनं विद्यमानमस्ति इति असूचयत्। आगामिनः फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य प्रयोजनाय ह्य पञ्चषष्ट्युत्तरैकशते निर्वाचन क्षेत्रेषु मुख्य निर्वाचनाधिकृतानां च कार्यालयाः स्थापिताः वर्तन्ते। सप्तसप्तत्यां जनपद मुख्यालयेषु सप्तसप्तति मुख्य निर्वाचनाधिकृतानां कार्यालयाः ततः वै अष्टाशीत्यां प्रतिनिधिसभा निर्वाचन क्षेत्रेषु निर्वाचनाधिकृतानां कार्यालयाश्च स्थापिताः सन्तीति निर्वाचनायोगस्य सहायक प्रवक्ता कुलबहादुर जीशी सूचयति। नेकपा एमाले दलेन अद्य केन्द्रीय सचिवालय उपवेशः आहूतो वर्तते। आगामिन फाल्गुन मासस्य एकविंशाय दिवसाय सम्पत्स्यमानस्य प्रतिनिधिसभाया निर्वाचनस्य कृते प्रत्याशिनां नामानि निश्चेतुम् अद्य दिवा एकवादनाय सचिवालय उपवेश आहूतो स्थिति। एमाले दलीय केन्द्रीय प्रचार प्रकाशन विभागस्य प्रमुख मीनबहादुर साई असूचयत्। उपवेश ललितपुरस्य च्यासलवर्तिनी एमाले दलीय केन्द्रीय कार्यालये आहूतो स्थिति असूचयत्। एमाले दलस्य जनपदैः प्रदेश समितिभिः परामृष्टेषु नामसु मध्ये प्रत्येकं क्षेत्रस्य कृते एकः प्रत्याशी निश्चीयमानो वर्तते। नेकपा नाम्नो नेपाली कम्युनिष्ट दलस्य संयोजकः पुष्पकमल दाहाल प्रचण्ड आगामिनः फाल्गुन मासस्य एकविंशे दिवसे निर्धारित समय एव प्रतिनिधिसभायाः निर्वाचनं भविष्यतीति निश्चिनोति। भरतपुर महानगरपालिकायां पूर्वे द्युः आयोजिते भवनोद्घाटन कार्यक्रमे संयोजकः प्रचण्डः निर्वाचनस्य विकल्पो नास्तीति उदैरयत्।